अथ श्री राघवेन्द्र कवचम् श्री अप्पणाचार्य कृतो कवचम् राघवेन्द्रस्य यतीन्द्रस्य महात्मनः वक्ष्यामि गुरुवर्यस्य वाञ्छितार्थ प्रदायकम् ऋषिरस्यप्पणाचार्यः छन्दोनुष्टुप प्रकीर्तितम् देवता श्री राघवेन्द्र गुरुरिष्टार्थ सिद्धये अष्टोत्तर शतम् जप्यम् भक्ति युक्तेन चेतसा उद्यत प्रत्योतन द्योत भर्म कूर्मासने स्थितम् यद्यकद्योतन द्योत प्रतापम् राम मानसम् धृतकासाय वसनम् तुलसीहार वक्षसम् दोरदण्ड विलसद्दण्ड कमण्डलो विराजितम् अभया ज्ञान मुद्राक्ष मालाशील कराम्बुजम् योगिन्द्र वन्दे पादाब्जम् राघवेन्द्र गुरुम् भजे शिरो रक्षतु मे नित्यम् राघवेन्द्रोऽखिलेष्टदाः पापात्रिपाटने वज्रः केशान् रक्षतु मे सदा क्षमासुरगणाधीशो मुखम् रक्षतु मे गुरुः हरिसेवा लब्ध सर्व सम्पत्फालम् ममावतु देवस्वभावोऽवतु मे त्रिशो तत्त्वप्रदर्शकाः इष्टप्रदाने कल्पद्रोः श्रोत्रे श्रुत्यर्थबोधकाः भव्यस्वरूपो मे नासाम् जिह्वा मे वतु भव्यकृतो हास्यम् रक्षतु मे दुःख तूलसङ्घाग्निचर्यकाः सुखधैर्यादि सुगुणो भुवो मम सदावतु ओष्टौ रक्षतु मे सर्वग्रह निग्रह शक्तिमान् उपपल्लवो दधीशेतुर्दन्तान् रक्षतु मे सदा निरस्तदोषो मे पातु कपोलौ सर्वपालकाः निरवध्य महावेशः कण्ठम् मे वतु सर्वदा कर्णमूले तु प्रत्यर्थि मूकत्वा करवाङ् मम बहुवादी जयी पातु हस्तौ सतत्त्ववादकृतो करौ रक्षतु मे विद्वत् परिज्ञेय विशेषवान् वाग्वैखरी भव्य शेष जयी वक्षस्थलम् मम सती सन्तान सम्पत्ति भक्ति ज्ञानादि वृद्धिकृतो स्तनौ रक्षतु मे नित्यम् शरीरावद्य हानिकृतो पुण्यवर्धन पादाब्जाभिषेक जल सञ्चयाः नाभिम् रक्षतु मे पार्श्वौ द्यो नदी तुल्य सद्गुणाः पृष्ठम् रक्षतु मे नित्यम् तापत्रय विनाशकृतो कटिम् मे रक्षतु सदा वन्द्यात् सत्पुत्रदायकाः जघनम् मे वतु सदा व्यङ्ग स्वङ्ग समृद्धिकृत गुह्यम् रक्षतु मे पाप ग्रहारिष्ट विनाशकृत भक्ताग विध्वंसकर निज मूर्ति प्रदर्शकाः मूर्तिमान् पातु मे रोमम् राघवेन्द्रो जगद्गुरोः सर्वतन्त्र स्वतन्त्रोऽसौ ध्यानुनि मे सदावतु जङ्घे रक्षतु मे नित्यम् श्रीमध्वा मतवार्धनाः विजयीन्द्र कराब्जोऽथ सुधीन्द्र वरपुत्रकाः गुल्फो श्रीराघवेन्द्रो मे यतीराट् सर्वदावतु पादौ रक्षतु मे सर्वभयहारी कृपानिधिः ज्ञानभक्ति सुपुत्रायुर्यशः श्रीपुण्यवर्धनाः गर्पादाङ्गुली सर्वा ममावतु जगद्गुरुः प्रतिवादी जयस्वान्त भेद चिन्नादरो गुरुः नखानवतु मे सर्वान् सर्वशास्त्रविशारदाः अपरोक्षी कृता श्रीशः प्राचाम् दिशि सदावतु सा दक्षिणे चावतो माम् समुपेक्षित भावजाः अपेक्षित प्रदाता च प्रतीच्यामवतु प्रभोः तया दाक्षिण्य वैराग्य वाग्पाटव मुखाङ्किताः सदोदिच्यामवतु माम् शापानुग्रह शक्तिमान् निखिलेन्द्रिय दोषग्नो महानुग्रह कृद्गुरुः अधश्चोर्ध्वम् चावतु मामष्टाक्षरमनोदितम् आत्मात्मीया घराशिघ्नौ माम् रक्षतु विदिक्षु च चतुर्णाम् च पुमर्थानाम् दाता प्रातः सदावतु सङ्ग्रामेव तु माम् नित्यम् तत्त्वविस्सर्वशोख्यकृत मज्ञानगम्य महिमा माम् रक्षतु महायशाः मृतपोत् प्राणदाता सायाने माम् सदावतु वेदिस्तपुरुषोज्जीवी निशीते पातु माम् गुरोः वह्निस्तमालिकोद्धरता वह्नितापात् सदावतु समग्रटीका व्याख्याता गुरुर्मे विषयेवतु कान्तारेवतु माम् नित्यम् भासी सङ्ग्रहकृत् गुरोः सुधा परिमलोद्धर्ता सुच्छन्दस्तु सदावतु राजचोरविषव्याधि यादो वन्ये मृगादिभिः अपस्मारापहर्तानः शास्त्रविद्सर्वदावतु गतौ सर्वत्र माम् पातोपनिषदार्थकृत् गुरोः ऋग्व्याख्यानकृदाचार्यः स्थितौ रक्षतु माम् सदा मन्त्रालय निवासी माम् जाग्रत्काली सदावतु न्यायमुक्ता बलीकर्ता स्वप्ने रक्षतु माम् सदा माम् पातु चन्द्रिका व्याख्या कर्ता सुप्तो हि तत्त्वकृत सुतन्त्रदीपिका कर्ता मुक्तौ रक्षतु माम् गुरोः गीतार्थसङ्ग्रहकर सदा रक्षतु माम् गुरोः श्रीमध्वमतदुग्धाब्धि चंद्रो वतु सदा नघः इति श्री राघवेन्द्रस्य कवचं पापनाशनं सर्वव्याधिहरं सत्यः पावनं पुण्यवर्धनं य इदं पठति नित्यं नियमेन समाहिताः अदृष्टिः पूर्णदृष्टिः स्यादेडमूकोऽपि वाक्पतिः पूर्णायुः पूर्णसम्पत्ति भक्तिज्ञानाभिवृद्धिकृत पीत्वा वारी नरो येन कवचेनाभिमन्त्रितम् जहाति कुक्षिकान् रोगान् गुरुवर्य प्रसादतः प्रदक्षिणा नमस्कारान् गुरुर्वृन्दावनस्य यः करोति परया भक्त्या तदेतत्कवचम् पठन् पङ्गुः कोणिश्च कोगण्डः पूर्णाङ्गो जायते ध्रुवम् शेषाश्च कुष्ठपूर्वाश्च नश्यन्त्यामयराशयाः अष्टाक्षरेण मन्त्रेण स्तोत्रेण कवचेन च वृन्दावने सन्निहितमभिषिच्ये यथाभिधि यन्त्री मन्त्राक्षरण्याष्टौ विलिख्यात्र प्रतिष्ठितम् षोडशैरुपचारैश्च सम्पूजे त्रिजगद्गुरुम् अष्टोत्तरशताख्याभिरर्चयेत् कुसुमादिभिः फलैश्च विविधैरैव गुरोरर्चां प्रकुर्वतः नामश्रवणमात्रेण गुरुवर्य प्रसादतः भूतप्रीतपिशाचाच्यः विद्रवन्ति दिशो दश पठेदेतत्त्रिकं नित्यं गुरोर्वृन्दावनान्तिके दीपं संयोज्य विद्यावान् सभासु विजयी भवेत् राजचोरमहाव्याघ्र सर्पनक्रादिपीडनात् कवचस्य प्रभावेण भयं तस्यै न जायते सोमसूर्योपरागादिकाले वृन्दावनान्तिके कवचादित्रिकं पुण्यमप्पणाचार्यदर्शितं जपेत्यः स धनं पुत्रान् भार्यां च सुमनोरमान् ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च शाश्वतीं सम्प्राप्य मोदते नित्यं गुरुवर्य प्रसादतः इति श्रीमदप्पणाचार्य विरचितं श्रीराघवेन्द्रकवचं सम्पूर्णम्।